ओम तत श्री लक्ष्मी नारायण कवचम श्री गणेशाय नमः। श्री भैरव उवाच अधुना देवि वक्ष्यामि लक्ष्मी नारायणस्यति कवचम मंत्र गर्भम च वज्र पंजर काख्यय। श्री वज्र पंजरम नाम कवचम परमाद्भुतम रहस्यम सर्वदेवानां साधकानां विशेषतः। यम धृत्वा भगवान देवः प्रसीदति परः पुमान् यस्य धारणमात्रेण ब्रह्मा लोक पितामहः। ईश्वरोऽहं शिवोऽपि वासवोऽपि दिवस्पतिः सूर्यस्तेजो निधिर्देवी चन्द्रमास्तारकीश्वराः। वायुश्च बलवान् लोके वरुणो याद साम्पतिः कुबेरोऽपि धनाध्यक्षो धर्मराजो यमस्मृताः। यम धृत्वा सहसा विष्णुः संहरिष्यति दानवान् जघान रावणादीश किं वक्षीह मतः परम्। कवचस्यासि सुभगी कथितो यम मुनिः शिवाः त्रिष्टुपछन्दो देवता च लक्ष्मी नारायणो मतः। रमाबीजं पराशक्तिस्तारं कीलकमीश्वरी भोगापवर्ग सिद्ध्यर्थं विनियोग इति स्मृताः। ओम अस्य श्री लक्ष्मी नारायण कवचस्य शिवऋषिः त्रिष्टुपछन्दाः श्री लक्ष्मी नारायण देवता श्रीं बीजं ह्रीं शक्तिः ओम कीलकम् भोगापवर्ग सिद्ध्यर्थे पाठी विनियोगाः। अथ ध्यानम् पूर्णेन्दु वदनम् पीतवसनम् कमलासनम् लक्ष्म्याश्रितम् चतुर्बाहुम् लक्ष्मीनारायणम् भजे। अथ कवचम् ॐ वासुदेवो वतु मे मस्तकम् शशिरोरुहम् रीङ्गलाटम् सदा पातु लक्ष्मी विष्णुः समन्ततः। असौः नेत्रीवता लक्ष्मी गोविन्दो जगताम् पतिः रीनासाम सर्वदा पातु लक्ष्मी दामोदरः प्रभुः। श्रीमुखं सततं पातु देवो लक्ष्मी त्रिविक्रमाः लक्ष्मीकण्ठं सदा पातु देवो लक्ष्मी जनार्दनः। नारायणाय बाहू मे पातु लक्ष्मी गदाग्रजः नमः। पार्श्वौ सदा पातु लक्ष्मी नन्दैकनन्दनाः। अं आं ईं ईं पातु वक्षो ॐ लक्ष्मी त्रिपुरेश्वराः। ॐ ॐ ह्रीं ह्रीं पातु कुक्षीं ह्रीं लक्ष्मी गरुडध्वजः। द्रीं द्रीं ऐं ऐं पातु पृष्ठम् हसौः लक्ष्मी नृसिंहकौः। ॐ औं अं अः पातु नाभिम् ह्रीं लक्ष्मी विष्टरस्रवाः। कं खं गं घं गुदम् पातु ह्रीं लक्ष्मी कैटभान्तकौः। दं छं जं छं पातु शिष्णम् लक्ष्मी लक्ष्मीश्वरः प्रभोः। तं थं डं ढं कटिं पातु नारायणाय नायकोः। तं फं तं धं पातु चोरु नमो लक्ष्मी जगत्पतेः। पं फं बं भं पातु जानु ॐ ह्रीं लक्ष्मी चतुर्भुजाः। यं रं लं वं पातु जङ्घे हसौः लक्ष्मी गदाधरोः। शं सं सं हं पातु गुल्फौ ह्रीं लक्ष्मी लक्ष्मीरथाङ्गभृतो। लं क्षः पादौ सदा पातु मूलं लक्ष्मी सहस्रपात्। अं यं नं नं मं मे पातु लक्ष्मीशः सकलं वपोः। इन्द्रो मां पूर्वतः पातु वह्निर्वह्नौ सदावतु। यमो मां दक्षिणे पातु नैरृत्यां निरतिश्च मां। वरुणः पश्चिमे व्यान् मां वायव्ये वतु मां मरुत्। उत्तरे धनदः पायाद् ईशान्यामीश्वरो वतु। वज्रशक्ति दण्ड खड्ग पाशयस्ति ध्वजाङ्किताः। सशूलः सर्वदा पान्तु दिगीषाः परमार्थदाः। अनन्तः पात्वधो नित्यो मूर्ध्वी ब्रह्मावताच्च माम्। दश दिक्षु सदा पातु लक्ष्मीनारायणः प्रभोः। प्रभाते पातु मां विष्णुर् मध्याह्ने वासुदेवकाः। दामोदरो वतात् सायम् निषादौ नरसिंहकाः। सङ्कर्षणोऽर्धरात्री व्यात् प्रभाते व्यात् त्रिविक्रमाः। अनिरुद्धः सर्वकालम् विश्वक्सेनश्च सर्वदाः। रणे राजकुले द्युति विवादे शत्रु संकटी। ओम ह्रीं हशौरीं श्रीं मोरम लक्ष्मी नारायणो वतु। ओम 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 रणराज चौररिपुताः पाया च मां केशवाः। ह्रीं 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 हा हा हसौः 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 वन्यर्वतान माधवाः। ह्रीं 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 जलपर्वताग्नि भयतः पायादनन्तो विभोः। श्रीं 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 शशशालम् प्रतिदिनम् लक्ष्मी भवा पातु माम्। इतीदम् कवचम् दिव्यम् वज्रपञ्जरकाभिधम् लक्ष्मीनारायणैष्टम् चतुर्वर्ग फलप्रदम् सर्वसौभाग्यनिलयम् सर्वसारश्वत प्रदम् लक्ष्मी संबननम् तत्त्वम् परमार्थ रसायनम् मंत्रगर्भम् जगत्सारम् रहस्यम् त्रिदिवौकसाम् दशवारं पढ़ेद्रात्रौ रतान्ते वैष्णवोत्तमाः स्वप्ने वरप्रदं पश्येल् लक्ष्मीनारायणं सुधीः त्रिसन्ध्यं यः प्रपठे नित्यं कवचं मनमुखोदितं सयाति परमं धामं वैष्णवं वैष्णवेश्वराः महाचीनपदस्थोऽपि यः पठेदात्मचिन्तकाः आनन्दपूरितस्तूर्णं लभेत् मोक्षं स साधकाः गन्धाष्टकेन विलिखेत् रवौ भोर्जे जपन्मनुम् पीतसूत्रेण संवेष्टि सौवर्णेन वैष्टयेत् धारयेत् गुटिकां मूर्ध्नि लक्ष्मीनारायणं स्मरन् रणे रिपून् विजित्यासु कल्याणी गृहमाविशेत् मन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना सा बध्नीयान् कण्ठदेशे लभेत् पुत्राश्चिरायुषाः गुरुपदेशतो धृत्वा गुरुं ध्यात्वा मनुं जपन् वर्णलक्ष्य पुरश्चर्या फलमाप्नोति साधकः बहुनोक्तेन किं देवि कवचस्यास्य पार्वती विना ज्ञानेन न सिद्धेशान् मन्त्रस्यास्य महेश्वरी सर्वागम रहस्याढ्यं तत्त्वातत्त्वं परात्परम् अभक्ताय न दातव्यं कुचैलाय दुरात्मनि दीक्षिताय कुलीनाय स्वशिष्याय महात्मनि महाचीनपदस्थाय दातव्यं कवचोत्तमं गुह्यं गोप्यं महादेवि लक्ष्मीनारायण प्रियं वज्रपञ्जरकं वर्म गोपनीयं स्वयोनिवात् इति श्रीरुद्रयामले तन्त्रे श्रीदेवी रहस्ये लक्ष्मीनारायण कवचं सम्पूर्णम्।